एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रियसभायाः उपवेशन वातावरण जन्य विपदो व्यवस्थापने सर्वकारस्य पूर्वकार्य सम्बद्धः ध्यानाकर्षण प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। सभायाः स्थनोपवेशे सांसदेन कमलापन्त इत्यनया विपद व्यवस्थापनस्य पूर्वकार्यस्य विषये सर्वकारस्य ध्यानम् आकर्षयितुं प्रस्तुतः प्रस्तावः सभया सर्वसम्मत्या स्वीकृतोऽस्ति। सभायाः अध्यक्षः नारायण प्रसाद दाहालः विपद व्यवस्थापनाय सर्वकारस्य पूर्वकार्य सम्बद्धे ध्यानाकर्षण प्रस्तावे उल्लिखितान् विषयान् प्राथमिकतापूर्वकं क्रियान्वयितुं सर्वकारं निर्दिष्टवान्। राष्ट्रियसभायाम् एतद् विक्रमवर्ष्यं संक्रामक पशुरोग नियन्त्रण सम्बद्धं विधेयकं प्रस्तुतमस्ति। सभायाः स्थनोपवेशे कृषि वन पर्यावरण मन्त्रिणा गीता चौधरी इत्यनया विधेयकमिदं प्रस्तुतमासीत्। मन्त्रिणा चौधरिणा महामार्याः जायमानं क्षतिं न्यूनीकर्तुं पशुजन्य पदार्थानां व्यापारस्य प्रवर्धनाय पशु संक्रामक रोग नियन्त्रणाय च विधेये आवश्यकता अस्तीत्यतः विधेयकमिदं प्रस्तुतमस्तीति स्पष्टीकृतमासीत्। गृहमन्त्री सुदन गुरूङ सर्वकारः शान्ति सुरक्षां स्थापयितुं नैरन्तरेण प्रयत्नरतोऽस्तीति उक्तवान् वर्तते। राष्ट्रियसभायां सांसदै उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री गुरूङ देशे शान्ति सुरक्षां स्थापयितुं गृहमन्त्रालयः सदैव क्रियाशीलोऽस्तीति उक्तवान्। देशे जायमानानां हत्या हिंसा बलात्कारापराधानां विषयेषु चरणबद्धतया अनुसन्धानं विधीयमानमस्तीति च मन्त्री गुरूङ प्रावोचत्। राष्ट्रियसभायाः स्थनोपवेशे मन्त्री गुरूङ वृत्त्युपार्जनस्य अभावस्य विपन्नतायाश्च कारणेन युवसु वर्धमानं नैराश्यं समापयितुं संघस्य प्रादेशिकानां स्थानीयस्तराणां च सर्वकारैः समन्वयं कृत्वा कार्ययोजना निर्मीयमाणास्तीति प्रावोचत्। स्थनोपवेशे महिला बालबालिका लैंगिक यौनिक अल्पसंख्यक सामाजिक सुरक्षा मन्त्री सीतावादी सार्वजनिक यातायात साधनेषु जायमानायाः लैंगिक हिंसायाः न्यूनीकरणाय प्रविधि मैत्री सुरक्षा प्रणाली अतिरिक्तं प्रभावपूर्ण विधास्यते इत्युक्तवती। राष्ट्रियसभायाः स्थनोपवेशे सांसदः दैनिकोपभोग्य वस्तूनां पाचनेन्धनाभावस्य आपणे विद्यमानायाः अनियमिततायाः नियन्त्रणस्य स्वास्थ्य सुरक्षण कोषस्य प्रभावकारितायाश्च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। नेपाली कांग्रेस दलस्य विवाद सम्बद्धं विषयं पुनरवलोकयितुं सर्वोच्च न्यायालयेन अनुमतिर्दत्ता अस्ति। नेपाली कांग्रेस दलस्य विशेष महाधिवेशन पक्षधरेभ्य आधिकारिकता प्रदानेन सह सम्बद्धं सर्वोच्च न्यायालयस्य आदेशं पुनरवलोकयितुं याचनां विधाय पञ्जीकारितं निवेदनमाधृत्य ह्य प्रधान न्यायाधीशस्य मनोज कुमार शर्मणः नित्यानन्द पाण्डेयस्य श्रीकान्त पौडेलस्य च पूर्ण न्यायपीठेन श्रवणं विधाय पुनरवलोकनाय अनुमतिर्दत्ता अस्ति। अनुमति प्राप्तेः अनन्तरं पूर्वसभापतेः शेरबहादुर देउवाभिदस्य याचिका निवेदनस्य निरसनाय सर्वोच्च न्यायालयेन एतत्पूर्वं प्रदत्तम् आदेशम् आधृत्य पुनः श्रवणं भविष्यति। तत्पूर्वं न्यायाधीशयोः सारंगा सुवेदिनः नृपधोज निरौला इत्यस्य च न्यायपीठेन गत वैशाख मासस्य चतुर्थे दिवसे निर्वाचितस्य गगन थापाभिदस्य नेतृत्वस्य कार्यसमित्यै मान्यतां प्रदाय देउवा पक्षस्य याचिका निवेदनं निरस्तीकृतमासीत्। आदेशोऽयं त्रुटिपूर्णोऽस्तीति उक्त्वा पुनरवलोकयितुं देउवाभिदेन श्रावणमासस्य सप्तमे दिवसे प्रतिनिधिर्माध्यमेन निवेदनं पञ्जीकारितमासीत्। अत्रान्तरे नेपाली कांग्रेस दलस्य उपसभापतिना विश्वप्रकाश शर्मणा कांग्रेस दलस्य विवादस्य विषये न्यायालयस्य पश्चात्तनेन निर्णयेन विशेष महाधिवेशनस्य वैधानिकं तथ्यं राजनीतिक सत्यं च अतिरिक्तं स्पष्टी भविष्यति इति उक्तं वर्तते। सर्वोच्च न्यायालयेन विशेष महाधिवेशन पक्षधरेभ्य आधिकारिकता प्रदानार्थम् एतत् पूर्ववर्तिनम् आदेशं पुनरवलोकयितुम् अनुमतेः प्रदानानन्तरम् उपसभापतिना शर्मणा एतादृशी टिप्पणी विहिता अस्ति। परराष्ट्र मन्त्रालयेन विभिन्न प्रयोजनेन विदेशं गन्तुकामानां नेपालीनां प्रमाणपत्राणां दूतावास सम्बद्धाय प्रमाणीकरणाय अनलाइन इति वैद्युत प्रणाली प्रारप्स्यते। परराष्ट्र मन्त्रालयस्य वाणिज्य दूत सेवा विभागस्य माध्यमेन जायमानां प्रमाणीकरण सेवां भाद्रमासस्य प्रथम दिवसात् अनलाइन इति वैद्युत प्रणाल्या माध्यमेन संचालयितुं पूर्वकार्यं विधीयमानमस्ति इति ज्ञापितं वर्तते। परराष्ट्र मन्त्रिणा शिशिर खनालेन अनलाइन इति वैद्युत प्रणाल्या उद्घाटनं विधाय बाह्य देशेष् गन्तुकामहि नेपाल नागरिकै वैयक्तिक प्रमाण प्रपत्राणाम् प्रमाणीकरणाय सुदूरात् काष्ठमण्डपागमनस्य आर्थिकभारस्य च समस्यायाः सत्त्वेन मन्त्रालयेन अस्मिन् कार्ये सहजप्रविधेः सेवाग्राही मैत्री सेवायाः शुभारम्भो विहिता आसीत् इत्युक्तम् वर्तते। प्रतिवर्षम् एकलक्षाधिकाः छात्राः अध्ययनार्थं विदेशेष् गच्छन्ति, परं प्रतिवर्षं चतुर्लक्षसंख्यातै नेपालीजनैः विदेशेष् वृत्त्युपार्जनाय अनुमतिर्गृह्यते। सूचना संचार मन्त्रालयेन संचार क्षेत्रं समयानुकूलं एकीकृतं उत्तरदायित्वयुक्तं च विधातुं संचार विधेयक प्रारूपं निर्मातुं अवधारणापत्रं सार्वजनीकृतमस्ति। मन्त्रालयेन वर्तमानार्थिक वर्षे एव विधेयकमिदं संसदि पञ्जीकरणस्य लक्ष्यं निर्धार्य कार्यं निर्धारितमस्ति इति ज्ञापितं वर्तते। अवधारणापत्रे संविधानेन सुनिश्चिततां अभिव्यक्ति स्वतन्त्रतां सूचना संचाराधिकारांश्च प्रभावकारितया सूचना प्रविधेः विकासं संचार माध्यमानां विस्तारं प्रसारण क्षेत्रस्य च विविधीकरणं कर्तुं सम्बोधयितुं नवीनानां एकीकृत नियमानां आवश्यकता अस्ति इति उल्लिखितं वर्तते। सर्वकारेण सर्वकारीय नेत्र चिकित्सालयानां संचालनं करिष्यते इति ज्ञापितं वर्तते। प्रतिनिधिसभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे स्वास्थ्य खाद्य स्वच्छता मन्त्री निशा मेहता सर्वकारेण अस्मात् वर्षात् कोशी प्रदेशे सर्वकारीय नेत्र चिकित्सालय स्थापना करिष्यते इति अज्ञापयत्। मन्त्री मेहता नेपाल स्वास्थ्य पर्यटन स्थलं भवितुं शक्नोति इति चर्चयन्ति। सर्वकारेण अधिनियमानां संशोधनं विधाय वैकल्पिक चिकित्सालयानां प्रवर्धनं विधीयमानमस्ति इति समस्पष्टयत्। रूकुम पश्चिम जनपदस्य आर्विस्कोट नगरपालिकायाः नगरप्रमुखेण रवि केसी इत्यनेन सहितानां एकादश जनानां विरूद्धे भ्रष्टाचारस्याभियोगे अभियोगपत्रं पञ्जीकारितमस्ति। अधिकार दुरूपयोगानुसन्धान आयोगस्य प्रवक्तुः सुरेश न्यूपानेभिदस्य अनुसारेण षट् सप्तत्युत्तर द्विसहस्रतमे सप्त सप्तत्युत्तर द्विसहस्रतमे च आर्थिक वर्षे सहकारी संस्थायाः प्रचयन कार्यविधे विपरीततया नगरप्रमुखेण केसी इत्यनेन आर्विस्कोट दुग्ध सहकारी संस्था लिमिटेड इति संस्थायां शैत्य केन्द्रस्य निर्माणाय सहायतानुदानार्थम् अर्थराशि प्रदत्तः। अस्याः संस्थायाः कृते आर्विस्कोट नगरपालिकातः यानक्रयणे भ्रष्टाचारो विहित इति अभियोगो वर्तते।